आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झाः। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य मध्यप्रदेशं प्रति एष्यति। सः धारक्षेत्रे स्वस्थ नारी सशक्त परिवारः इत्यस्य अभियानस्य शुभारम्भं च विधास्यति। सममेव अष्टमस्य राष्ट्रिय पोषण माहस्य च शुभारम्भं करिष्यति। अद्यारभ्य अग्रिममासस्य द्विदिनांक पर्यन्तं अशेषे हि देशे आयुष्मान आरोग्य मन्दिरेषु, सामुदायिक स्वास्थ्य केन्द्रेषु, मण्डल चिकित्सालयेषु, अन्येषु च सर्वकारीय कार्यालयेषु च अभियानस्यास्य आयोजनं भविष्यति। अस्मिन्नवसरे श्रीमोदी जनसभां च सम्बोधयिष्यति। प्रधानमन्त्री नरेन्द्रमोदी अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यनेन सह दूरभाषमाध्यमेन वार्तालापम् अकरोत्। श्री ट्रम्प वर्यः मोदिनः जन्मदिवसावसरे शुभाशयाः च प्रेषितवान्। एकस्मिन् जनसञ्चारपटले प्रधानमन्त्री अवोचत् यत् श्री ट्रम्पः इव सः अपि भारत अमेरिका समग्र वैश्विक सहभागितां नूतनम् औन्नत्यं प्रति नेतुं पूर्णतया प्रतिबद्धः अस्ति। मोदी अवोचत् यत् भारतं युक्रेन द्वन्द्वस्य शान्तियुत समाधानाय श्री ट्रम्प वर्यस्य उपक्रमं समर्थयति। मॉरिशस देशस्य प्रधानमंत्री नवीन चंद्र रामगुलम राष्ट्रपति भवने राष्ट्रपतिना द्रौपदी मुर्मू इत्यनया सह मिलितवान्। प्रधानमंत्रिणः प्रतिनिधि दलस्य च स्वागतं कुर्वती राष्ट्रपतिः अवदत् यत् भारतस्य नेबरहुड फर्स्ट नीतिः, महासागर लक्ष्यम् अपि च ग्लोबल साउथ प्रति भारतस्य प्रतिबद्धतायां मॉरिशस देशः विशिष्टं स्थानं भजते। राष्ट्रपतिः अवोचत् यत् द्वयोः राष्ट्रयोः मध्ये सहभागित्वं सहकारः च प्रत्येकस्मिन् क्षेत्रे निरन्तरं वर्धमानः अस्ति। केन्द्रीय गृहमन्त्री अमितशाहः अद्य नवदिल्ल्यां राजधान्यां केन्द्रशासित प्रदेशानां च मादक पदार्थ निरोधक कार्यबलस्य प्रमुखाणां द्वितीय राष्ट्रिय सम्मेलनस्य उद्घाटनम् अकरोत्। अस्मिन् सम्मेलने 36 राज्यानां केन्द्रशासित प्रदेशानां च मादक पदार्थ निरोधक कार्यबलस्य प्रमुखान् अतिरिच्य अन्य सर्वकारीय विभागानां हितधारकाः अपि भागम् अगृह्णन्। अत्रावसरे श्रीशाहः प्रोक्तवान् यत् सम्प्रति देशस्य 270+ जनपदेषु मादक मुक्त भारताभियानं प्रचाल्यते।
एक त्रिकोणीय रणनीति के तहत हमने कदम उठाने पड़ेंगे। ड्रग की सप्लाई चेन के लिए हमारा रूथलेस अप्रोच होना चाहिए। डिमांड रिडक्शन में एक स्ट्रेटेजिक अप्रोच होना चाहिए और हार्म रिडक्शन में ह्यूमन अप्रोच होना चाहिए। ये तीनों अप्रोच के साथ एंटी नार्कोटिक्स टास्क फोर्स ने आगे बढ़ना चाहिए।
केन्द्रीय गृहमन्त्री अमितशाहः अद्य दिल्ल्याः त्यागराज क्रीडाङ्गणे सेवा पखवाड़ा इत्यस्य उपक्रमस्य भागरूपेण 15 प्रमुख कल्याणकारी योजनानां समुद्घाटनं करिष्यति। अद्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः 75वें जन्मदिवसावसरे समयोचितरूपेण उद्घाटने प्रमुखाः परियोजनाः सन्ति, यथा दृष्टिबाधितानां बालिकानां कृते अटल दृष्टि छात्रावासः, बौद्धिक विकलांगानां कृते अटल आशा गृहम्, वरिष्ठ नागरिकाणां कृते सावित्री बाई फुले गृहम्। डॉ जितेन्द्र सिंह वर्यः ह्यः नवदिल्ल्यां स्वच्छतामभिलक्ष्य वेब पोर्टल 5.0 अभियानं समुद्घाटितवान्। उत्तराखण्ड प्रदेशस्य विविधेषु जनपदेषु तीव्र वृष्ट्या सामान्यं जनजीवनम् अतिशयेन बाधितम्। पर्वतीय प्रदेशेषु भूस्खलन कारणात् अनेके मार्गाः अवरुद्धाः सन्ति। प्रदेशस्य प्रमुख नद्यः सामान्य स्तरात् उपरि सन्ति। देहरादूने 13 जनाः मृत्युमुपगताः। तत्र आपत् उद्धार कार्याणि प्रचलन्ति। लोकप्रिय पर्यटन स्थलं सहस्रधारायामपि महती क्षतिः समजायत। इति वार्ताः।